प्रचण्डं प्रकृष्टं प्रगल्भं परेशम् अखण्डं अजम्भानुकोटि प्रकाशम् त्रयशूलनिर्मूलनं शूलपाणिं भजेऽहं भवानीपतिं भाव